ಶ್ರೀಯಾದಿನಾಥಾಯ ನಮೋಸ್ತು ತಸ್ಮೈ ಏನೋಪದಿಷ್ಟಾ ಯೋಗ ವಿದ್ಯಾ ವಿಭ್ರಾಜತೆ ಪ್ರೋನ್ನತ ರಾಜ ಯೋಗಂ ಆರೋಢ ನಿಚ್ಛೋರತಿರೋಹಿಣೀವ. ಶವಾಸನ ಸಮಾಪ್ತ. ತದನಂತರ ತ್ರಯಸ್ತ್ರಿಂಶತ್ತಮಃ ಶ್ಲೋಕ. ಚತುರಶೀತ್ಯಾಸನಾನಿ ಶಿವೇನ ಕಥಿತಾನಿ ಚ ತೇಭ್ಯಶ್ಚತುಷ್ಕಮಾದಾಯ ಸಾರಭೂತಂ ಬ್ರವೀಮ್ಯಹಂ ಇತಿ. ಶ್ಲೋಕ ಉಚ್ಚಾರ್ಯತಾಂ.
ಚತುರಶೀತ್ಯಾಸನಾನಿ ಶಿವೇನ ಕಥಿತಾನಿ ಚ ತೇಭ್ಯಶ್ಚತುಷ್ಕಮಾದಾಯ ಸಾರಭೂತಂ ಬ್ರವೀಮ್ಯಹಂ. ಚತುರಶೀತ್ಯಾಸನಾನಿ ಶಿವೇನ ಕಥಿತಾನಿ ಚ ತೇಭ್ಯಃ ಚತುಷ್ಕಂ ಆದಾಯ ಸಾರಭೂತಂ ಬ್ರವೀಮಿ ಅಹಂ.
ಬಹು ಸರಳ ಶ್ಲೋಕ. ಶಿವೇನ ಚತುರಶೀತ್ಯಾಸನಾನಿ ಕಥಿತಾನಿ. ತತ್ರ ಶಿವ ಯಹ ಹಠಯೋಗ ಪ್ರವರ್ತಕ ತೇನ ಶಿವೇನ ಚತುರಶೀತ್ಯಾಸನಾನಿ ಕಥಿತಾನಿ. 84 ಆಸನಾನಿ ಪ್ರೋಕ್ತಾನಿ ಉಪದಿಷ್ಟಾನಿ. ತೇಭ್ಯಃ ಚತುರಶೀತಿ ಸಂಖ್ಯಾಕೇಭ್ಯಃ ಆಸನೇಭ್ಯಃ ಚತುಷ್ಕಂ ಆದಾಯ ಚತುಸ್ಸಂಖ್ಯಾಕಾನಿ ಆಸನಾನಿ ಆದಾಯ ಅಹಂ ಬ್ರವೀಮಿ ಅಹಂ ಕಥಯಾಮಿ. ಕೀದೃಶಾನಿ ತಾನಿ ಚತ್ವಾರಿ ಆಸನಾನಿ ಯಾನಿ ಮಯಾ ಚತುರಶೀತಿಭ್ಯಃ ಚತುರಶೀತಿ ಸಂಖ್ಯಾ ಯುಕ್ತೇಭ್ಯಃ ಆಸನೇಭ್ಯಃ ಮಯಾ ತತಃ ಸಂಗೃಹ್ಯಂತೆ ಇತಿ ಚೇತ್ ತತ್ ಸಾರಭೂತಂ ತತ್ ಆಸನ ಚತುಷ್ಟಯಂ. ನಮ್ಮ ಅತ್ಯಂತಂ ಪ್ರಮುಖಂ ಸಾರಭೂತಂ ತಾದೃಶಂ ಆಸನ ಚತುಷ್ಟಯಮಹಂ ಕಥಯಾಮಿ ಇತಿ. ತತ್ರ ಕಶ್ಚನ ಶ್ಲೋಕ ಅಸ್ತಿ, ಗೋರಕ್ಷನಾಥ ರಚಿತಃ ಶ್ಲೋಕ. ಆಸನಾನಿ ಚ ತಾವಂತಿ ಯಾವಂತ್ಯೋ ಜೀವಜಾತಯಃ ಏತೇಷಾಂ ಅಖಿಲಾನ್ ಭೇದಾನ್ ವಿಜಾನಾತಿ ಮಹೇಶ್ವರಃ. ತ ಯಾವಂತ್ಯಃ ಜೀವಜಾತಯಃ ಆಸ್ ಮೆನಿ ಆರ್ ದ ಸ್ಪೀಷೀಸ್ ತಾವಂತ್ಯೋ ಜೀವಜಾತಯಃ ಸೋ ಮೆನಿ ಆರ್ ದ ಆಸನಾಸ್ ಏತೇಷಾಂ ಅಖಿಲಾನ್ ಭೇದಾನ್ ವಿಜಾನಾತಿ ಮಹೇಶ್ವರಃ. ಪರಮೇಶ್ವರಃ ಏವ ಏತಾನಿ ಸರ್ವಾಣ್ಯಪಿ ಆಸನಾನಿ ವೇತ್ತಿ. ಚತುರಶೀತಿ ಲಕ್ಷಾಣಿ ಏಕೈಕಂ ಸಮುದಾಹೃತಂ ತತಃಶಿವೇನ ಪೀಠಾನಾಂ ಷೋಡಶಾನಾಂ ಶತಂಕೃತಂ ಇತ್ಯೇವಂ. ತತ್ರ ಚತುರಶೀತಿ ಲಕ್ಷ ಸಂಖ್ಯಾಕಾನಿ ಆಸನಾನಿ ಸಂತಿ. ತತ್ರ ಮಯಾ ಚತ್ವಾರಿ ಏವ ಆಸನಾನಿ ಗೃಹ್ಯಂತೆ ಇತಿ. ಚತುರಶೀತಿ ಲಕ್ಷ ಜೀವಜಾತಯಃ ತಾವಂತ್ಯಾಸನಾನಿ ತತಃ ಪ್ರಮುಖಾಣಿ ಚತುರಶೀತ್ಯಾಸನಾನಿ ತತ್ರಾಪಿ ಚತ್ವಾರಿ ಆಸನಾನ್ಯೇವ ಪ್ರಧಾನಾನಿ ಇತಿ ಅಯಂ ಕಥಯತಿ ಸ್ವಾತ್ಮಾ ರಾಮಃ. ಯತ್ರ ತತ್ರ ಯಥಾ ಅಸ್ತಿ ಸಾಹಿತ್ಯಶಾಸ್ತ್ರೆ ಕಾವ್ಯೇಷು ನಾಟಕಂ ರಮ್ಯಂ ಜ್ಞಾಯತೆ ವಾ ಎಂ ಶ್ಲೋಕಃ.
ತತ್ರ ರಮ್ಯಾ ಶಕುಂತಲಾ
ತತ್ರಾಹಂ ಚ ಚತುರ್ಥೋಂಕಃ ತತ್ರ ಶ್ಲೋಕಚತುಷ್ಟಯಂ ಇತಿ ಉಚ್ಯತೆ ಕಿಲ. ತತ್ರ ಶ್ಲೋಕಚತುಷ್ಟಯಂ ಅತ್ರ
ತತ್ರ ಆಸನ ಚತುಷ್ಟಯಂ
ಆಸನ ಚತುಷ್ಟಯಂ ಹೌದು. ಅಗ್ರೆ ಕಾನಿ ತಾನಿ ಆಸನಾನಿ ಇತಿ ಅಧುನಾ ಆಕಾಂಕ್ಷಾ ಜಿಜ್ಞಾಸಾ ಪ್ರವರ್ತತೆ. ಸಿದ್ಧಂ ಪದ್ಮಂ ತಥಾ ಸಿಂಹಂ ಭದ್ರಂ ಚೇತಿ ಚತುಷ್ಟಯಂ ಶ್ರೇಷ್ಠಂ ತತ್ರಾಪಿ ಚ ಸುಖೇ ತಿಷ್ಠೇತ್ ಸಿದ್ಧಾಸನೇ ಸದಾ ಇತಿ ಚತುಸ್ತ್ರಿಂಶತ್ತಮಃ ಶ್ಲೋಕಃ. ಶ್ಲೋಕಃ ಪಠಿತಾಂ.
ಸಿದ್ಧಂ ಪದ್ಮಂ ತಥಾ ಸಿಂಹಂ ಭದ್ರಂ ಚೇತಿ ಚತುಷ್ಟಯಂ ಶ್ರೇಷ್ಠಂ ತತ್ರಾಪಿ ಚ ಸುಖೇ ತಿಷ್ಠೇತ್ ಸಿದ್ಧಾಸನೇ ಸದಾ. ಸಿದ್ಧಂ ಪದ್ಮಂ ತಥಾ ಸಿಂಹಂ ಭದ್ರಂ ಚ ಇತಿ ಚತುಷ್ಟಯಂ ಶ್ರೇಷ್ಠಂ ತತ್ರ ಅಪಿ ಚ ಸುಖೇ ತಿಷ್ಠೇತ್ ಸಿದ್ಧಾಸನೇ ಸದಾ.
ಅತಃ ಕಾನಿ ತಾನಿ ಚತ್ವಾರಿ ಆಸನಾನಿ ಪ್ರಮುಖಾಣಿ ಇತಿ ಚೇತ್ ಸಿದ್ಧಾಸನಂ ಪದ್ಮಾಸನಂ ಸಿಂಹಾಸನಂ ಭದ್ರಾಸನಂ ಇತಿ. ಅತ್ರಾಪಿ ತೇಷು ಚತುರ್ಷ್ವಪಿ ಕಿಂ ಪ್ರಮುಖಮಾಸನಂ ಸಿದ್ಧಾಸನಂ. ಅತಃ ಸರ್ವದಾಪಿ ಯದಾ ಯದಾ ಆಸನಾರ್ಥಂ ಉಪವಿಶ್ಯತೆ ಸಿದ್ಧಾಸನೇ ಏವ ಉಪವೇಷ್ಟವ್ಯಂ ಇತಿ. ಅತ್ರ ಏತಾನಿ ಚತ್ವಾರಿ ಅಪಿ ಆಸನಾನಿ ಉಪವಿಷ್ಟಸ್ಥಿತೌ ಭವಂತಿ ಚಿರತಯಾ ಉಪವೇಶನಾರ್ಥಂ ಏತಾನಿ ಆಸನಾನಿ ತಃ ಕುರ್ವಂತಿ. ಅಸ್ತು, ಏತೇಷಾಂ ಕ್ರಮಶಃ ಏಕೈಕಸ್ಯಾಪಿ ಆಸನಸ್ಯ ವಿವರಣಂ ವಯಂ पश्यामः तत्र पञ्चत्रिंशत्तमे श्लोके सिद्धासनं कथ्यते। अस्याम् आवल्यां सिद्धं पद्मं तथा सिंहं भद्रम् इत्येव खलु क्रमः विवृतः। अस्मिन् क्रमे अपि प्रथमं किमस्ति?
सिद्धासनम्।
अतः क्रमम् अनुसरता, उद्देशक्रमम् अनुसरता ग्रन्थकर्त्रा प्रथमं सिद्धासनमेव गच्छते, तस्यैव लक्षणं विव्रियते। योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत्, मेढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम्, स्थाणुस्संयमितेन्द्रियोचलदृशा पश्येद्भ्रुवोरन्तरम्, एतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते। श्लोकः पठ्यताम्।
योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत्, मेढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम्, स्थाणुस्संयमितेन्द्रियोचलदृशा पश्येद्भ्रुवोरन्तरम्, ह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते। योनिस्थानकम् अङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत्, मेढ्रे पादम् अथ एकम् एव हृदये कृत्वा हनुं सुस्थिरं, स्थाणुः संयमितेन्द्रियः अचलदृशा पश्येत् भ्रुवोः अन्तरं, हि एतत् मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते।
तत्र कथं करणीयम् एतदासनं तत्र पदपदार्थविवरणेन सह पश्यामः। प्रथमं किमस्ति? योनिस्थानकम् इत्यस्ति। योनिस्थानकम् इत्युक्ते, योनिस्थानम् इत्युक्ते किम् इति चेत्, गुद उपस्थयोः मध्ये विद्यमानः शरीरस्य भागः योनिस्थानम् इति उच्यते। गुद शब्दस्य यतः मलविसर्जनं क्रियते तत् गुदस्थानम् इत्युच्यते। उपस्थशब्देन तत्र मूत्रविसर्जनस्य तत् स्थानं तद् उपस्थशब्देन उच्यते। अतः तयोर्द्वयोः मध्ये यत् स्थानं तदेव योनिस्थानम् इत्युच्यते। तस्मिन् आङ्ग्लभाषायां पेरिनियम् इति तत् स्थानं कथ्यते। किं करणीयम्? योनिस्थानकम् अङ्घ्रिमूलघटितं कृत्वा। अङ्घ्रिशब्दस्य कः अर्थः? पादः इत्यर्थः। पादस्य मूलभागः अङ्घ्रिमूलघटितं, बेस् आफ् द हील्। तेन किं करणीयम् इति चेत्, योनिस्थाने तत्र योनिस्थानेन सह संयोजनीयम्। तत्र योनिस्थानम् अङ्घ्रिमूलघटितं कृत्वा इत्येव उक्तम्। कस्य पादस्य अङ्घ्रिमूलं तत्र योनिस्थानेन सह संयोक्तव्यम् इति नोक्तम्। तर्हि व्याख्याता ब्रह्मानन्दः कथयति, वामपादस्य यद् अङ्घ्रिमूलं तत् योनिस्थानकेन सह घटनीयं, योजनीयं कृत्वा एतत् प्रथमं कार्यम्। प्रथमं कार्यं स्पष्टं वा? अस्मिन् आसनक्रमे प्रथमं योनिस्थानकेन सह वामपादाङ्घ्रिमूलस्य संयोजनं करणीयं, तदनन्तरं कृत्वा एतत् कृत्वा एतत् समाप्य दृढं विन्यसेत् मेढ्रे पादम् अथ एकमेव। एतदनन्तरं मेढ्रशब्दस्य उपस्थ इत्यर्थः, तन्नाम मूत्रविसर्जनस्थानं, तत् मेढ्रशब्देन उच्यते। तत्र अन्यस्य पादस्य स्थापनं करणीयम्। तत्र दक्षिणपादः यः अस्ति, वामपादस्य वाम अङ्घ्रिमूल मूलं तावत् किं करणीयम् इति चेत्, वाम अङ्घ्रिमूलेन योनिस्थानकं संयुक्तं करणीयम्। इदानीं दक्षिणपादेन तद् मेढ्रस्य उपरि तन्नाम मूत्रविसर्जनस्थानं यदस्ति तस्य उपरि एव दक्षिणपादस्य मूलं संयोजनीयं तर्हि अधः वामपादः उपरि दक्षिणपादः भवति कथं योजनीयम् इति चेत् दृढं विन्यसेत् इति अनन्तरं किं करणीयम् एतद् द्वितीयं कार्यं स्पष्टं वा तृतीयं कार्यं किं करणीयम् हृदये हनुं सुस्थिरं कृत्वा सो पादसम्बद्धं कार्यद्वयं समाप्तम् अधुना तावता समाप्यते वा सिद्धासनम् इति चेन्न किं करणीयम् अग्रे इति चेत् हनुः अस्ति किल हनुभावः हृदये संयोजनीयः इति तन्नाम जालन्धरबन्धस्य सूचनं चिन् लाक् इति उच्यते अतः शिरः किञ्चित् अधः कृत्वा तत्र हनुभागः साक्षात् हृदयं स्प्रष्टुं न शक्नोति परन्तु किञ्चित् अधोमुखतया भवितव्यं येन हनुः यथा हृदयं स्पृशेत् इति एतत् उपलक्षणार्थम् उक्तम् एवमेव स्वीकर्तुं न शक्यते जालन्धरबन्धः अत्र सूचितः चिन् लाक् तत् करणीयं तृतीयं कार्यं समाप्तम् अग्रे स्थाणुः संयमितेन्द्रियः भवेत् कथं स्थाणुः स्थाणुशब्दस्य कः अर्थः इति चेत् स्थिरः चलनरहितः इति शरीरावयवानि ततः परं न सञ्चालनीयानि एतानि कार्याणि कृत्वा शरीरावयवानां चालनं न करणीयं स्थैर्यम् आपादनीयम् अनन्तरं स्थाणुः इति पदस्य सः अर्थः स्थाणुशब्दस्य क्रियारहितः शरीरचलनचलनादिकं चालनादिकं न करणीयम् इति अनन्तरं संयमितेन्द्रियः शरीरस्य नाम हस्तपादादीनां स्थैर्यं सम्पादनीयम् एवमेव इन्द्रियाण्यपि निग्रहीतव्यानि नाम यानि इन्द्रियाणि त्वगिन्द्रियम् एतानि सर्वाण्यपि इन्द्रियाणि तत्र स्थिराणि करणीयानि अनन्तरं किं करणीयं तावता कार्यं समाप्तं वा इति चेत् न स्थाणुः संयमितेन्द्रियः संयमितेन्द्रिय नाम संयमितानि इन्द्रियाणि यस्य सः यस्य इन्द्रियाणि सम्यक् निगृहीतानि सः संयमितेन्द्रियः योगी साधकः सः साधकेन इन्द्रियाणामपि लौल्यं निवारणीयम् अनन्तरं दृष्टिः कुत्र भवेत् इति चेत् अचलदृशा भ्रुवोरन्तरं पश्येत् नाम दृष्टिः अपि स्थिरा भवेत् स्थिरया दृष्ट्या कुत्र द्रष्टव्यम् इति चेत् भ्रूमध्यभागः वीक्षणीयः भ्रोः मध्ये यः भागः तस्य वीक्षणार्थं यत्नः करणीयः अवगतम् एतावत् आसनकरणप्रक्रिया एतावती आसनकरणप्रक्रिया कियत् मोक्षकपाटभेदजनकम् इतः परं लक्ष्यस्य विषये लक्षणं कथितं कियत् कथं करणीयं पादस्थापनं कथं करणीयम् अनन्तरं हनुः कुत्र भवेत् शरीरस्य स्थितिः कथं भवेत् इन्द्रियाणि कथं भवेयुः अनन्तरं दृष्टिः कथं भवेत् इत्यादि उक्त्वा किञ्चित् फलमपि तत्र उच्यते एतत् मोक्षकपाटभेदजनकम् इति मोक्षकपाटशब्दस्य द्वारम् इत्यर्थः मोक्षद्वारस्य भेदनं करोति नाम उद्घाटनं करोति एतादृशस्य सिद्धासनस्य अनुष्ठानेन मोक्षद्वारस्य अपावरणं नाम उद्घाटनं सिद्ध्यति अतः सिद्धासनं प्रोच्यते ईदृशम् आसनं तत् सिद्धासनम् इति भवति नाम यदा पूर्वोक्तक्रमेण सिद्धासनस्य अनुष्ठानं क्रियते तदा साधकस्य मेरुदण्डः अत्यन्तं ऋजुः भवति। पादस्य अङ्घ्रिमूलस्य योनिस्थानके यदा स्थापनं क्रियते, अपरस्य पादस्य च मेढ्रस्य उपरि स्थापनं यदा क्रियते, तस्यां स्थितौ अत्यन्त आर्जवं प्राप्नोति मेरुदण्डः, अत्यन्तं स्थैर्यं तेन सिद्ध्यति इति एतदेव सिद्धासनं प्रोच्यते।
सर्वदा वामपादस्य उपरि दक्षिणपादः स्थापनीयः।
वाम सर्वदापि वामपादः अधः दक्षिणपादः उपरि तथैव तत् करणीयमस्ति। तस्य पुनः दक्षिणपादः अधः वामपादः उपरि इति प्रक्रिया नोक्ता अस्ति। अत्र अन्यदेकं स्पष्टीकरणीयं, यथा मया उक्तं हृदयं हृदये चिबुकं स्थापनीयम्, अत्र हनुशब्दस्य चिबुकम् इति अर्थः स्वीकृतः अस्ति व्याख्यात्रा, चिबुकम् इति चिबुकम् इत्यस्य किम् उच्यते आङ्ग्लभाषायां?
चिन्
चिन् चिन् यस् चिन्। अतः हनुः इत्यस्य व्याख्याता तत्र चिबुकम् इति वदति, तत् चिन् इति भवति। चिन् लाक् इति एव मया विवृतं किल, अतः हृदयम् इति साक्षात् उक्तं चेदपि हृदये न स्थापनीयम्, हृदय समीपे हनुं चिबुकं सुस्थिरं सम्यक् स्थिरं कृत्वा हनु हृदययोः चतुरङ्गुलम् अन्तरं यथा भवति तथा कृत्वा इति रहस्यम् इति वदति। नाम कियद्दूरं तत् चिन्त किं करणीयम् इति चेत्, ततः अङ्गुष्ठं निवार्य चतस्रः अङ्गुल्यः यदि चिन्लाक् अनन्तरं तत्र स्थाप्यन्ते तदा साक्षात् हृदयस्य समीपं तदा आगच्छेत्, तथा हृदये चिबुकस्य निधानं करणीयम् इति तत्र रहस्यं विवृणोति व्याख्याता। यदा चिन्लाक् करोति कथं करणीयं, कियद्दूरम् अधः गन्तव्यम् इति चेत् हृदयपर्यन्तं, नाम चिबुकतः हृदयपर्यन्तम् अङ्गुलिचतुष्टयं स्थाप्यते चेत् तद् स्पृष्टं भवेत्। तथा अस्ति चेत् अङ्गुष्ठं निवार्य अङ्गुलिचतुष्टयं स्थाप्यते चेत् हृदयस्य नाम तावद्दूरं भवेत् चिबुकस्य हृदयस्य च। सो तदेव हृदये चिबुकस्य निधानम् इति अर्थः, तदेव रहस्यम् इति व्याख्याता विवृणोति। अतः साक्षात् चिबुकं गृहीत्वा हृदये स्थापनं न, हृदयस्य चतुरङ्गुलदूरे चिबुकस्य निधानमेव, तत्र हृदये कृत्वा हनुं सुस्थिरम् इत्यस्य अनुष्ठानरहस्यम् इति। अत एव व्याख्यानानि द्रष्टव्यानि, व्याख्यानस्य महिमा अनेन ज्ञायते। इदानीम् अस्यैव सिद्धासनस्य किञ्चित् भिन्नप्रकारेणापि अनुष्ठानं भवति, मतान्तरमपि अस्ति एतस्य सिद्धासनस्य अनुष्ठाने, कथमस्ति इति पश्यामः। तद् मतान्तरमेव अग्रिमे श्लोके उच्यते। मेढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि गुल्फान्तरञ्च निक्षिप्य सिद्धासनमिदं भवेत्।
मेढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत्। मेढ्रात् उपरि विन्यस्य सव्यं गुल्फं तथा उपरि गुल्फान्तरं च निक्षिप्य सिद्धासनम् इदं भवेत्।
सरलमेव अस्ति, किमस्ति मेढ्रात् उपरि मेढ्रशब्दस्य जननेन्द्रियम् इत्यर्थः, जननेन्द्रियस्य उपरि किं करणीयं, सव्यं सव्यस्य गुल्फस्य स्थापनं करणीयम्। अत्र गुल्फशब्दस्य कः अर्थः, एङ्कल् इत्यर्थः। पूर्वत्र सिद्धासनस्य अनुष्ठानसमये अङ्घ्रिमूलम् इत्युक्तं, बेस् आफ् द फीट् इति उक्तम्, अत्र तु एङ्कल् यदस्ति तत् कुत्र स्थापनीयं, जननेन्द्रियस्य उपरि स्थापनीयम्, अनन्तरं तस्य उपरि गुल्फान्तरं निक्षिप्य। सो ప్రథమం వామగుల్ఫ వామ నమ సవ్యగుల్ఫస్య జననేంద్రియస్యోపరి స్థాపనం, తదుపరి నమ వామగుల్ఫస్య ఉపరి దక్షిణ గుల్ఫస్య స్థాపనం కరణీయం. అతః ఏతదపి సిద్ధాసనం భవతి ఇతి మతాంతరే ఏవమపి సిద్ధాసనం అనుష్ఠాతుం శక్యతే ఇతి అయం విచారః. అత్ర వ్యాఖ్యాత కిం ఏత అయం శ్లోకస్య అర్థ వ్యాఖ్యాత కిం వదతి, మేఢాదుపరి ఊర్ధ్వభాగే, మేఢాదుపరి నామ ఊర్ధ్వభాగే సవ్యం వామగుల్ఫం విన్యస్య తథా సవ్యాదుపరి ముఖ్యపాదస్య ఉపరి నతు సవ్యగుల్ఫస్య. అత్ర ఏకం స్పష్టీకరణం కరోతి వ్యాఖ్యాత. ఇదానీం ప్రథమం వామ పాదస్య యః గుల్ఫభాగః తస్య సంయోజనం కరణీయం మేఢ్ర ఉపరి భాగే జననేంద్రియస్య ఉపరి భాగే. తదుపరి ఇత్యస్తి తథోపరి ఇత్యస్తి కిల నామ దక్షిణ గుల్ఫస్య స్థాపనం కుత్ర కరణీయం ఇతి చేత్ అధః విద్యమానస్య వామగుల్ఫస్య ఉపరి న కరణీయం అపితు వామపాదః భవతి కిల తస్య ఉపరి స్థాపనీయం ఇతి సహ కించిత్ పరిష్కరణం కరోతి మూలశ్లోకస్య. మూలశ్లోకాధారేణ అస్మాభిః దృశ్యతే చేత్ వామగుల్ఫస్య ఉపరి లెఫ్ట్ యాంకిల్ ఉపరి దక్షిణగుల్ఫస్య స్థాపనం కరణీయం ఇతి అర్థ ప్రతిభానం భవతి. వ్యాఖ్యాత కిం కథయతి ఇతి చేత్ వామగుల్ఫస్య ఉపరి దక్షిణగుల్ఫః న స్థాపనీయః అపితు వామపాదస్య మధ్యే మధ్యభాగే సోల్ భవతి కిల వామపాదస్య తత్ర దక్షిణగుల్ఫస్య స్థాపనం కరణీయం ఇది స్వ అనుభవేన అస్య అనుష్ఠాన ప్రకారస్య పరిష్కరణం విధత్తే వ్యాఖ్యాత. ఏతదపి సిద్ధాసనస్య ఏకః భేదః. సప్తత్రింశత్తమం శ్లోకం ప్రతి గచ్చామః. ఏతత్ సిద్ధాసనం ప్రాహురణ్యే వజ్రాసనం విదుః ముక్తాసనం వదంతి ఏకే ప్రాహుర్గుప్తాసనం పరే ఇతి.
ఏతత్ సిద్ధాసనం ప్రాహుః అన్యే వజ్రాసనం విదుః ముక్తాసనం వదంత్యేకే ప్రాహుర్గుప్తాసనం పరే. ఏతత్ సిద్ధాసనం ప్రాహుః అన్యే వజ్రాసనం విదుః ముక్తాసనం వదంతి ఏకే ప్రాహుః గుప్తాసనం పరే.
ఓ సరళమస్తి నమ అసేవ సిద్ధాసనస్య నానా పర్యాయ పదాని ఉచ్యంతే. కానీ ఏతత్ సిద్ధాసనం ప్రాహుః, ఏతత్ సిద్ధాసనం ఇది కథయంతి. అన్యే వజ్రాసనం విదుః, ఏతదేవ ఆసనం అన్యే కిమిది విదుః జానంతి వజ్రాసనం ఇది కథయంతి. ముక్తాసనం వదంతి ఏకే, కేచన కిం వదంతి ఏతత్ ముక్తాసనం ఇది, అన్యే ఏతత్ గుప్తాసనం ఇది కథయంతి. ఏవం ఏకస్యైవ సిద్ధాసనస్య చత్వారి నామాని నామ త్రీణి పర్యాయ పదాని గుప్తాసనం ముక్తాసనం వజ్రాసనం ఇది. కిమస్తి అత్ర వైశిష్ట్యం ఇది చేత్ వ్యాఖ్యానాత్ కించిత్ వైశిష్ట్యం అవగమ్యతే. పృథక్ ఏకస్యైవ ఆసనస్య త్రిధా అన్యథా నామకరణమస్తి, తస్య వైశిష్ట్యం అత్ర కథయంతి. కిం ఇది చేత్ అత్ర ఆసనాభిజ్ఞాః కథయంతి, విశేషేణ ఆసన కుశలాః యే భవంతి తే కిం కథయంతి. వ్యాఖ్యాత వదతి, యత్ర వామపాద పార్ష్ణిం యోనిస్థానే నియోజ్య దక్షిణపాద పార్ష్ణిః మేఢ్రాదుపరి స్థాప్యతే తత్ సిద్ధాసనం. ప్రథమ శ్లోకః దీర్ఘ శ్లోకః ఆసీత్ కిల, తత్ర యద్ వివృతం భవత్యాపి తత్ర బీకే సైంగార్ చిత్రం దర్శితం. తత్ర యోనిస్థానే వామపాద పార్ష్ణిః అనంతరం మేఢ్రస్య ఉపరి दक्षिणपादपार्श्वे स्थापनम् इति यदुक्तं तत् सिद्धासनम्। अनन्तरं तस्य रिवर्सल् यदा क्रियते, दक्षिणपादस्य अङ्घ्रिमूलम् अथवा पार्श्निः योनिस्थाने, वामपादस्य अङ्घ्रिमूलं जननेन्द्रियस्य अथवा मेढ्रस्य उपरि, तस्य रिवर्सल् यदा क्रियते तत् किमिति वदन्ति? वज्रासनम् इति कथयन्ति इति विवृणोति व्याख्याता। फस्ट् लेफ्ट् लेग् अधः रैट् लेग् उपरि अस्ति चेत् तत् सिद्धासनम्, रैट् लेग् अधः लेफ्ट् लेग् उपरि अस्ति चेत् तत् वज्रासनम्। अनन्तरं द्वितीये श्लोके उक्तं किल, मेढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं विदुः इति, तत्र यत्र दक्षिणसव्यपादपार्ष्णिद्वयम् उपर्यधोभागेन संयोज्य योनिस्थानेन संयोज्यते तन्मुक्तासनम्, इदानीं तृतीयं मुक्तासनमस्ति, तस्य किञ्चित् विशिष्टं विवरणं वदति व्याख्याता। किं वदति? दक्षिणसव्यपादपार्ष्णिद्वयम् उपर्यधोभागेन संयोज्य, प्रथमं दक्षिणपार्ष्णि तद् उपरि भवेत्, दक्षिणपार्ष्णि नाम अङ्घ्रिमूलं, दक्षिणपार्ष्णिभागः उपरि, वामपार्ष्णिभागः अधः, अनन्तरम् उभयमपि योनिस्थाने संयोजनीयम्। योनिस्थानस्य विषये पूर्वमेव विवृतं, पेरिनियम् इति उच्यते, तत्र उभयस्य पादस्य अनेन क्रमेण संयोजितस्य स्थापनं करणीयम्। एवं क्रियते चेत् तत् किम् आसनं भवति? मुक्तासनम्। अनन्तरं यत्र च पूर्ववत् संयुक्तं पार्ष्णिद्वयं मेढ्रादुपरि निधीयते तद् गुप्तासनम्। एवमेव अधः वामपार्ष्णिः उपरि दक्षिणपार्ष्णिः, परन्तु द्वयोः स्थापनं कुत्र क्रियते? योनिस्थाने न क्रियते, योनिस्थाने क्रियते चेत् तद् मुक्तासनम्। जननेन्द्रियस्य उपरि एवं संयुक्तयोः पादयोः स्थापनं क्रियते चेत् तस्य आसनस्य नाम गुप्तासनम्। सटल् डिफरेन्स् एव अस्ति अत्र, षट्त्रिंशत्तमे श्लोके यदुक्तं तद् गुप्तासनम्, मुक्तासनम् इत्येतत् विशिष्य व्याख्यात्रा उच्यते। पुनः एकवारं संक्षिप्य उच्यते चेत् सिद्धासनं श्लोकोक्तक्रमेण, पञ्चत्रिंशत्तमे श्लोके यदुक्तं तत् सिद्धासनम्, तस्य रिवर्सल् दक्षिणवामपादयोः रिवर्सल् क्रियते चेत् तत् वज्रासनम्। मुक्तासनं तद्भवति यत्र दक्षिणवामपार्ष्णिद्वयं संयोज्य योनिस्थाने स्थाप्यते। पुनः गुप्तासनं तावत् षट्त्रिंशत् श्लोके कथितसिद्धासनप्रकारेण करणीयं, तावदेव अयं विवेकः। तद् व्याख्यानदर्शनेन ज्ञायते। इदानीम् अष्टात्रिंशत् श्लोकः अस्ति। यमेष्विव मिताहारम् अहिंसां नियमेष्विव मुख्यं सर्वासनेष्वेकं सिद्धासिद्धासनं विदुः।
यमेष्विव मिताहारम् अहिंसां नियमेष्विव मुख्यं सर्वासनेष्वेकं सिद्धासिद्धासनं विदुः। यमेषु इव मिताहारम् अहिंसां नियमेषु इव मुख्यं सर्वासनेषु एकं सिद्धाः सिद्धासनं विदुः।
यथा यमेषु, यमनियमौ प्रसिद्धौ योगशास्त्रे, अष्टाङ्गयोगे यमनियमौ प्रसिद्धौ किल, अष्टसु अङ्गेषु यमः, नियमः, आसनं, प्राणायामः, प्रत्याहार इत्येवम् अष्टाङ्गानि सन्ति। तत्र यथा यमेषु मिताहारः विशिष्यते, एवमेव नियमेषु अहिंसा विशिष्यते अथवा मुख्यं भवति, एवं सर्वेषु आसनेषु मुख्यं किम् आसनं? सिद्धासनम् इति के कथयन्ति? सिद्धाः, सिद्धाः विदुः जानन्ति इति। अत्र किं वैशिष्ट्यम् इति चेत्, पातञ्जलयोगसूत्रे यमाः ये कथिताः, के के यमाः पातञ्जलयोगसूत्रे? अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य, अपरिग्रहाः यमाः। पातञ्जलयोगसूत्रे नियमाः के? शौच, सन्तोष, तपः, स्वाध्याय, ईश्वरप्रणिधानानि नियमाः। ಪಾತಂಜಲೋಕ್ತಕ್ರಮೇಣ ಯಮೇಶು ಮಿತಾಹಾರ ನಾಸ್ತಿ. ಪಾತಂಜಲೋಕ್ತಕ್ರಮೇಣ ನಿಯಮೇಶು ಅಹಿಂಸಾ ನಾಸ್ತಿ. ಯಮೇಶು ಅಹಿಂಸಾ ಅಸ್ತಿ, ಮಿತಾಹಾರ ವಿಶಿಷ್ಯ ನಿಯಮೇಶು ನೋಚ್ಯತೆ. ತಥಾಪಿ ಕಿಂಚಿತ್ ಏಷಃ ವಿಶಿಷ್ಟಂ ಕಥಯತಿ. ಏನ ಜ್ಞಾಯತೆ ಯತ್ ಆತ್ಮಾರಾಮಸ್ಯ ದೃಷ್ಟ್ಯಾ ಅನ್ಯಾಯೇವ ಕಾಚಿದ ಆವಲಿಹಿ ಅಸ್ತಿ ಇತಿ ಯಮನಿಯಮಯೋಃ ಇತಿ ಅಸ್ಮಾಭಿಃ ತದ ಅವಗಂತುಂ ಶಕ್ಯತೆ. ಪಾತಂಜಲೋಕ್ತ ಕ್ರಮಾಪೇಕ್ಷೆಯ ಕಶ್ಚಿತ್ ವಿಶಿಷ್ಟ ಯಮನಿಯಮ ಕ್ರಮ ಸ್ವಾತ್ಮಾರಾಮೇಣ ಜ್ಞಾತಃ ಇತಿ ಅಸ್ಮಾಭಿಃ ಅತ್ರ ಊಹನೀಯಂ. ಕಿಂತು ಅತ್ರ ಕಿಂ ಅಸ್ತಿ ಇತಿ ಚೇತ್, ಸಪ್ತದಶ ಶ್ಲೋಕ ಅಸ್ಮಾಭಿಃ ಪಠಿತಃ ಕಿಲ. ಸಪ್ತದಶ ಶ್ಲೋಕ ಪಠನಾತ್ ಪೂರ್ವಂ ಷೋಡಶ ಶ್ಲೋಕ ಉತ್ಸಾಹ ಸಾಹಸ ಧೈರ್ಯಾದ್ ಇತಿ. ತತಃ ಪರಂ ಕಿಮಸ್ತಿ ಅಹಿಂಸಾ ಸತ್ಯಮಸ್ತೇಯಂ ಬ್ರಹ್ಮಚರ್ಯಂ ಕ್ಷಮಾಧೃತಿಃ ದಯಾರ್ಜವಂ ಮಿತಾಹಾರಃ ಶೌಚಂ ಚೈವ ಯಮಾ ದಶ ಇತಿ ಕಥಯತಿ. ತಸ್ಯಾಂ ಆವಲ್ಯಾಂ ಯಮೇಷು ಮಿತಾಹಾರಃ ಅಸ್ತಿ, ಅಹಿಂಸಾಪಿ ಯಮೇಷ್ವೇವ ಅಸ್ತಿ. ತಪಸ್ಸಂತೋಷಾಸ್ತಿಕ್ಯಂ ದಾನವೀಶ್ವರ ಪೂಜನಂ ಸಿದ್ಧಾಂತವಾಕ್ಯಶ್ರವಣಂ ಶ್ರೀಮತಿ ಚ ಜಪೋಹುತಂ ನಿಯಮಾದಶ ಸಂಪ್ರೋಕ್ತಃ ಇತಿ ಯೇ ಉಕ್ತಃ ತೇಷು ನಿಯಮೇಷು ಕಿಂ ನಾಸ್ತಿ, ಅಹಿಂಸಾ ನಾಸ್ತಿ. ಏನ ಕಾರಣೇನ ಕಿಂ ವಕ್ತವ್ಯಂ, ಕುತ್ರಚಿತ್ ಪ್ರಕ್ಷೇಪಃ ಅಥವಾ ದೋಷಃ, ಟೆಕ್ಸ್ಚುವಲ್ ಕರಪ್ಷನ್ ಇತಿ ವಕ್ತವ್ಯಂ. ಕುತ್ರಚಿತ್ ದೋಷಃ ಕೃತಃ, ಅಯಂ ಶ್ಲೋಕಃ ಏವ ಪ್ರಕ್ಷಿಪ್ತಃ ಇತಿ ವಕ್ತವ್ಯಂ. ಅಥವಾ ಕುತ್ರಚಿತ್ ಟ್ರಾನ್ಸ್ಮಿಷನ್ ಮಧ್ಯೆ ಕಾಚಿತ್ ಅವ್ಯವಸ್ಥಾ ಸಂಜಾತಾ ಇತಿ ಗೃಹೀತವ್ಯ. ಅಥವಾ ತತ್ರ ಯಮನಿಯಮಯೋಃ ಇನ್ಸರ್ಷನ್ ಯದ್ ದೃಶ್ಯತೆ ಸಹ ಪ್ರಾಮಾಣಿಕಃ ನ ಪ್ರಾಯಃ ಅನ್ಯಾಯೇವ ಕಾಚಿದ ಆವಲಿಃ. ಯಮನಿಯಮ ದಶ ಯಮಾನಂ ವಿಷಯೇ ದಶ ನಿಯಮಾನಂ ವಿಷಯೇ ಅನ್ಯಾಯೇವ ಕಾಚಿದ ಆವಲಿಃ ಆಸೀತ್, ಯತ್ರ ಯಮೇಷು ಮಿತಾಹಾರಃ ನಿಯಮೇಷು ಅಹಿಂಸಾ ಆಸೀತ್ ಇತಿ. ಅತಃ ಯಮನಿಯಮಯೋಃ ನಮ್ಮ ಸಪ್ತದಶ ಶ್ಲೋಕಾತ್ ಪ್ರಾಕ್ ಯಮನಿಯಮಯೋಃ ಯದ್ ವಿವರಣಮಸ್ತಿ ಸಹ ಶ್ಲೋಕಃ ದೋಷಪೂರ್ಣಃ ಇತಿ ವಕ್ತವ್ಯಂ ಭವೇತ್. ಏವಂ ನಾನಾವಿಧ ಪಾಸಿಬಿಲಿಟೀಸ್ ಅಸ್ತಿ, ಪರಂತು ಶ್ಲೋಕಸ್ಯ ತಾತ್ಪರ್ಯಂ ಏತಾವದೇವ. ಯಥಾ ಯಮೇಷು ಮಿತಾಹಾರಃ ಶ್ರೇಷ್ಠಃ ನಿಯಮೇಷು ಅಹಿಂಸಾ ಶ್ರೇಷ್ಠಃ ಏವಮೇವ ಆಸನೇಷು ಕಿಂ ಆಸನಂ ಶ್ರೇಷ್ಠಂ ಸಿದ್ಧಾಸನಸ್ಯ ವೈಶಿಷ್ಟ್ಯಂ ಪ್ರಖ್ಯಾಪಯಿತುಂ ಅಯಂ ಶ್ಲೋಕಃ ರಚಿತಃ ಅಸ್ತಿ. ಇತೋಪಿ ಅಗ್ರೇ ಕಿಂಚಿತ್ ಸಿದ್ಧಾಸನಸ್ಯ ಪ್ರಶಂಸಾ ಕ್ರಿಯತೆ, ಕಿಂತು ವಯಂ ಅತ್ರ ವಿರಮಾಮಃ ಅಸ್ಯಾಂ ಕಕ್ಷಾಯಾಂ. ಶ್ರಿಯಾದಿನಾಥಾಯ ನಮೋಸ್ತು ತಸ್ಮೈ ಏನೋಪದಿಷ್ಟಾ ಯೋಗ ವಿದ್ಯಾ ವಿಭ್ರಾಜತೆ ಪ್ರೋನ್ನತರಾಜ ಯೋಗಂ ಆರೋಢ ನಿಚ್ಛೋರತಿರೋಹಿಣೀವ.